पश्यत् सौभाग्यमस्यै दत्त्वा यथास्तं विपरेतन
सी हूँ तेरे लिए।